पृष्ठ संख्या 18, चतुर्थः पाठः, हास्य बाल कवि सम्मेलनम्। अव्यय प्रयोगः। इस चतुर्थ पाठ में अव्ययों का विशेष रूप से प्रयोग किया गया है। संस्कृत व्याकरण शास्त्र में अव्यय का लक्षण है सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्, अर्थात सभी विभक्ति वचन और लिंग में जो बराबर रहे वह पद या शब्द अव्यय कहा जाता है, जिसका व्यय नहीं होता है। जैसे यथा, उपरि, यत्र, तत्र, कुत्र, सर्वत्र इत्यादि। तो आइए इस पाठ में हम आगे बाल हास्य कवि सम्मेलन का आनंद लेते हैं।
विविध वेशभूषाधारिणः चत्वारः बालकवयः मञ्चस्य उपरि उपविष्टाः सन्ति। अधः श्रोतारः हास्यकविताश्रवणाय उत्सुकाः सन्ति, कोलाहलं कुर्वन्ति च। सञ्चालकः:
अलं कोलाहलेन अद्य परम हर्षस्य अवसरः यदस्मिन् कविसम्मेलने काव्यहन्तारः कालयापकाश्च भारतस्य हास्यकविधुरन्धराः समागताः सन्ति। एहि करतलध्वनिना वयम् एतेषां स्वागतं कुर्मः।
गजाधरः:
सर्वेभ्यो अरसिकेभ्यो नमो नमः। प्रथमं तावद् अहम् आधुनिकं वैद्यम् उद्दिश्य स्वकीयं काव्यं श्रावयामि। वैद्यराज नमस्तुभ्यं, यमराज सहोदर, यमस्तु हरति प्राणान्, वैद्यः प्राणान् धनानि च।
सर्वे उच्चैः हसन्ति।
पृष्ठ संख्या 19।
कालांतकः:
अरे वैद्यास्तु सर्वत्र, परन्तु न ते मादृशाः कुशलाः जनसंख्या निवारणे। ममापि काव्यमिदं शृण्वन्तु भवन्तः। चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः। नाहं गतो न मे भ्राता, कस्येदं हस्तलाघवम्।
सर्वे पुनः हसन्ति। तुन्दिलः: तुन्दस्य उपरि हस्तम् आवर्तयन्।
तुन्दिलोऽहं भो, ममापिदं काव्यं श्रूयतां, जीवने धार्यतां च। परान्नं प्राप्य दुर्बुद्धे, मा शरीरे दयां कुरु। परान्नं दुर्लभं लोके, शरीराणि पुनः पुनः।
सर्वे पुनः अट्टहासं कुर्वन्ति। चार्वाकः:
आम् आम्, शरीरस्य पोषणं सर्वथा उचितमेव। यदि धनं नास्ति तदा ऋणं कृत्वापि पौष्टिकः पदार्थः एव भोक्तव्यः, तथा कथयति चार्वाक कविः। यावज्जीवेत् सुखं जीवेत्, ऋणं कृत्वा घृतं पिबेत्।
श्रोतारः:
तर्हि ऋणस्य प्रत्यर्पणं कथम्?
चार्वाकः:
श्रूयतां मम अवशिष्टं काव्यं। घृतं पीत्वा श्रमं कृत्वा ऋणं प्रत्यर्पयेत् जनः।
काव्यपाठश्रवणेन उत्प्रेरितः एकः बालकोऽपि आशु कवितां रचयति, हासपूर्वकं च श्रावयति।
पृष्ठ संख्या 20।
बालकः:
श्रूयतां श्रूयतां भो, ममापि काव्यम्। गजाधरं कविं चैव तुन्दिलं भोज्यलोलुपं कालांतकं तथा वैद्यं चार्वाकं च नमाम्यहम्।
काव्यं श्रावयित्वा हा 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 इति कृत्वा हसति, अन्ये चापि हसन्ति, सर्वे गृहं गच्छन्ति।